परिश्रान्तं समरे चिन्तया स्थितं रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् दैवतैश्च समागम्य द्रष्टुमभ्यागतोरणम् उपागम्य ब्रवीत् रामम् अगस्त्यो भगवान् ऋषिः रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतं पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः एष देवासुरगणा लोकान्पातिकभस्तिभिः ब्रह्मा च विष्णुश्च शिवस्कन्दः प्रजापतिः महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः पितरो वसवः साध्या ह्यश्विनौ प्रजा प्राण ऋतुकर्ता प्रभाकरः आदित्यः सविता सूर्य खगः पूषा गभस्तिमान् सुवर्ण सदृशो भानुर्हिरण्यरेता दिवाकरः हरिदश्व सहस्रार्चिः सप्त सप्तिर्मरीचिमान् तिमिरोन्मथनशम्भुस्त्वष्टा मार्ताण्डांशुमान् हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः अग्निगर्भोदिते पुत्रः शङ्खशिशिरनाशनः ब्रह्मेशानच्युते भगवते सर्वभक्षाय रौद्राय वपुषे नमः। तमोघ्नाय हिमघ्नाय शत्रुघ्नाय मितात्मने कृतघ्नघ्नाय देवाय ज्योतिषापतये नमः। युद्धेषु विजयिष्यसि। अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि। एवमुक्त्वा तदागस्त्यो जगाम च तथागतम्। एतच्छ्रुत्वा महातेज नष्टशोको भवत्तदा। धारयामास सुप्रीतो प्रयतात्मवान्। आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान्। त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्। रावणं प्रेक्ष्य हृष्टात्मा चरपति संक्षयं विदित्वा सुरगण मध्यगतो वचस्त्वरेति इति आदित्य हृदय।